इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। पाकिस्तान देशेन अष्ट प्रक्षेपास्त्राणि जम्मू कश्मीर राज्यस्य सतवारी सांबा आरेस्पुरा अरण्य क्षेत्रेषु प्रक्षेपितानि। रक्षासूत्रानुसारि सर्वाण्यपि प्रक्षेपास्त्राणि वायुरक्षाबलैः विनष्टीकृतानि अवरुद्धानि च। प्राप्त सूचनानुसारं जम्मूनगरस्य दृश्यम् इजराइल देशोपरि जातस्य हमासेन दुरापादितस्य आक्रमणस्य समानमेवासीत्। पाकिस्तानदेशीयं सैन्यबलम् आतंकी संघटनं हमासस्य सादृशं कार्यं कुर्वदस्ति अथ च व्यवहारं साधयति। सूत्रैः विज्ञापितं यत् पाकिस्तानदेशस्य आईएसआई इति तथा च हमास इति आतंकी संघटनं विगतमासे पाकिस्तानाधिकृत क्षेत्रे मिलितवती। अन्ताराष्ट्रिय सीम्नः समीपं जम्मू पठानकोट उधमपुर क्षेत्राणां सैन्यस्थानकानि पाकिस्तानदेशेन प्रक्षेपास्त्राणि ड्रोन यन्त्राणि च उपयुज्य लक्ष्यीकृतानि। तावत् कापि हानिः नैव समंकिता। अयं संकटः भारतीय सशस्त्र बलैः गतिचागति साधनैः सह एसओपी इत्यनुसारं निष्प्रभावः कृतः। रक्षासूचनया प्रतिपादितं यत् पश्चिमीय सीम्नि अनेकेषु स्थानेषु ड्रोन इत्योपकरणानि दरीदृष्टानि। तत्रैव भारतीय वायुरक्षाप्रणाल्या प्रभाविविधिना सह अस्य संकटस्य सामुख्यं कृतमस्ति। अत्रान्तरे गतरात्रौ प्रायः एकादशवादने सीमासुरक्षाबलेन जम्मूकश्मीरस्य साम्बामण्डले अन्ताराष्ट्रिय सीमायाम् अन्तः प्रवेष्टुं बृहत्तमः प्रयासः अपि विफलीकृतः। तत्रैव पंजाब राज्ये ह्यः रात्रौ पठानकोट जालंधर अमृतसर भटिंडा क्षेत्राणि समेत्य अनेकेषु स्थलेषु पाकिस्तान द्वारा लक्षिताः प्रयासाः भारतीय सशस्त्र बलैः विफलीकृतः। पाकिस्तान देशेन साम्प्रतिके समये जातम् आक्रमणम् उद्दिश्य भारते किशनगढ़ भुंतर लुधियाना विमानपत्तन स्थानकानि पिहितानि। इतः पूर्वं राजस्थान पंजाब जम्मू कश्मीर चंडीगढ़ हिमाचल प्रदेश राज्यानि समेत्य अनेकेषु विमानपत्तन स्थानकेषु परिचालनं पिहितं जातम्। अत्रावधौ नागरिकोड्डयन मन्त्रालयः समग्रे देशे विमानपत्तन स्थानकानां पिधान सम्बद्धां भ्रामक सूचनां निरस्तीकृतवान्। तत्रैव दिल्ली विमानपत्तन स्थात्रेण यात्रा सम्बद्धं दिङ्निर्देशं प्रख्यापयता प्रोदीरितं यत् परिचालनं सामान्यमस्ति। वायुक्षेत्रस्य परिवर्तमान परिस्थितिम् आलक्ष्य काश्चित् उड्डयन सेवाः प्रभाविताः जाताः। पठानकोटे राजौरी क्षेत्रे वा आतंकवादैः कृतस्य आत्मघातिनः आक्रमणस्य सूचना पूर्णतया असत्यम् इति रक्षास्रोताः सूचितवन्तः। अपि च उभयपक्षतः टैंक इति योद्धृ यानानाम् आवागमनमपि नैव जातमिति सूच्यते। विदेशमन्त्री डॉ एस जयशंकरः ह्यः सायंकाले अमेरिकादेशस्य विदेशमन्त्रिणा मार्को रूबिया इत्यनेन सह वार्तालापं कृत्वा सीमापारस्य आतंकवादविषये भारतस्य निर्दिष्टस्य मापनस्य च प्रतिक्रियायाः विषये अवधानं दत्तवान्। सामाजिक सन्देश पटले एकस्मिन् डॉ जयशंकरः अवदत् यत् भारतः उद्विग्नतायाः कस्यापि प्रयासस्य दृढतया प्रतिरोधं करिष्यतीति। सः अवदत् यत् असौ आतंकवादस्य विरुद्धयुद्धे भारतेन सह कार्यं कर्तुम् अमेरिकादेशस्य प्रतिबद्धतायाः गभीरतया प्रशंसापि करोति। विदेशमन्त्री इटलीदेशस्य उपप्रधानमन्त्रिणा विदेशमन्त्रिणा च एण्टोनियो तजानी इत्यनया सह टेलीकॉन्फ्रेंस द्वारा आतंकवादस्य दृढतया प्रतिकारार्थं भारतस्य निर्देशित प्रतिक्रियायाः उपायानां च विषये अपि चर्चां कृतवान्। दिल्ली प्रशासनम् अग्रिमसूचना पर्यन्तं स्वाधिकारिणां कर्मचारिणां च सर्वान् अवकाशान् निराकृतवत्। आधिकारिकादेशासूचितं यत् वर्तमान परिस्थित्याः दृष्ट्याः आपत्कालिक प्रतिक्रियायाः व्यवस्थायाः सज्जतायाः सुनिश्चितातायाः आवश्यकतायाः च दृष्ट्या निर्णयोऽयं गृहीतः अस्ति इति वार्ताः।